सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति अव्ययानि इति. अत्र च अपि एव इति विषये गतवर्गे वयं अभ्यासं कृतवन्तः. तत्र किं भवति, च इति समूहं निर्दिश्यति अपि अस्ति चेत् तत्र किमपि पूर्वम् अभवत्, तत्र रामः गच्छति लक्ष्मणः अपि गच्छति इति, तत्र अनुसरणक्रिया किमपि तादृशरूपं निर्दिश्यति. अपि वयं दृष्टवन्तः एव इति, तस्मिन् विषये अपि किञ्चित् दृष्टवन्तः गतवर्गे. तत्र अपि इति पदस्य वाक्ये तस्य स्थानस्य महत्त्वम् अस्ति वा, कोऽपि वदति वा? अपि इति पदस्य वाक्ये महत्त्वम् अस्ति खलु. हा उषा भगिनी नमस्कारः. हा महत्त्वम् अस्ति खलु. हा महत्त्वम् अस्ति. हा मधुसूदन महोदय नमस्कारः. उदाहरणं कोऽपि वदति वा अपि इति? हा नमस्कारः मधुसूदन
महोदय.
साधारणवाक्यं 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 वदतु भगिनी.
न महोदय, कक्षायाम् आरम्भे श्लोकं वदामि न महोदय.
ओ धन्यवादः भगिनी, धन्यवादः भगिनी, धन्यवादः. समीचीनं. हा 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 अस्तु. भानुचतुरी महोदय तत्र श्लोकं वदति वा आरम्भे? तुषा भगिनी नमस्ते, धन्यवादः भगिनी. अत्र वर्गस्य आरम्भे शान्तिमित्रम् इति कृत्वा वर्गम् आरम्भं कुर्मः इति चिन्तनमासीत्, किन्तु अहं विस्मृतवान्. उषा भगिनी स्मरितवती. अतः वदतु.
इदानीं पठामि वा महोदय?
हा इदानीं वदतु महोदय.
ॐ सहना भवतु, सहनौ भुनस्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः.
धन्यवादः महोदय. धन्यवादः उषा भगिनी. धन्यवादः उषा भगिनी. अस्तु इदानीं तत्र च अपि एव इति विषये आरम्भं कुर्मः. तत्र च इति समूहं निर्दिशति, अपि इति अस्ति चेत् तत्र अन्यत् किमपि अस्ति, तदनन्तरम् एषा क्रिया भवति इति आसीत्. तत्र अपि इति पदस्य वाक्ये पदस्य स्थानस्य महत्त्वम् अस्ति वा इति विषये कोऽपि उदाहरणं वदति वा?
पूर्वपदे महत्त्वं प्रभावः अस्ति महोदय.
केवलं उदाहरणं वदतु, उदाहरणं. तत्र परिवर्तनं कुर्मश्चेत् किं भवति?
अहमपि चलनचित्रं दृश्यामि इत्युक्ते मम पुत्री सह, पुत्र्या सह, अथवा मम पति सह अहं चलनचित्रं, चलनचित्रं दृश्यामि. अहं चलनचित्रमपि दृश्यामि इत्युक्ते अहं किमपि अन्यकार्यमपि करोमि, चलनचित्रमपि दृश्यामि,
अन्यदपि दृश्यामि, अन्यदपि पश्यामि, चलनचित्रमपि पश्यामि.
अहं चलनचित्रमपि पश्यामि इत्युक्ते अहं दूरदर्शने चलनचित्रं पश्यामि, सङ्गणके द्वारे किमपि यूट्यूब् अथवा किमपि द्रश्यामि इति पश्यामि.
अस्तु 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 भगिनि, धन्यवादः. समीचीनं. हा अतः तत्र अपि अस्ति चेत् तत्र वाक्ये कुत्र भवति इति तस्य महत्त्वम् अस्ति. अपि इति किं भवति, तत्र अपि इति पदस्य प्रभावः पूर्वपदे भवति, अतः तत्र तस्य स्थानस्य महत्त्वम् अस्ति. तादृशः एव एव इति अव्ययमपि, तत्र एव यत्र भवति तत्र तस्य महत्त्वमपि अस्ति. इदानीम् एव इति पदस्य साधा सामान्य प्रयोगः कोऽपि वदति वा एव इति उपयुज्य?
अहं संस्कृतमेव पठामि.
हा धन्यवादः. इदानीं तत् तस्य वाक्यस्य अर्थः कः?
अहं किमपि न पठामि, केवलं संस्कृतमेव पठामि.
हा, अहम् अन्यत् किमपि न पठामि, केवलं हा अन्यत् किमपि न पठामि, केवलं संस्कृतम् एव पठामि. अतः तत्र किं करोति, तत्र एवम् इति तत्र केवलम् इति अर्थे भवति. हा, तत्र अन्यत् किमपि नास्ति, एतदेव अथवा एषः एव अत्र इति तादृश अर्थे भवति. समीचीनम्. अन्यत् उदाहरणम् एव उपयुज्य.
बालकः दुग्धमेव पिबति.
हा, बालकं दुग्धमेव पिबति. हा, तत्र अर्थः कः अत्र?
बालकः किमपि न पिबति,
अन्यत् किमपि न पिबति,
केवलं दुग्धमेव पिबति.
दुग्धमेव पिबति, समीचीनं महोदय. इदानीं तत्र एव इति पदस्य तत्र परिवर्तनं कुर्मः, एव इति पदस्य स्थानम् अन्यत्र स्थापयामश्चेत् तत्र बालकः एव दुग्धं पिबति. इदानीं किं भवति तत्र? बालकः एव दुग्धं पिबति.
मधुसूदन
महोदय, हा हा वद, शुभा भगिनी वदतु.
अन्य कोऽपि न पिबति, बालकः एव पिबति.
हा इति, अतः तत्र एव इति पदं यत्र अस्ति तस्य पूर्वपदम्. इदानीं तत्र बालकः एव दुग्धं पिबति, तत्र एव इति पदस्य पूर्वं बालकः अस्ति, अतः सः एव अन्य कोऽपि न इति तत्र स्थानेन वयं ज्ञातुं शक्नुमः, एव पदस्य स्थानेन. अस्तु, तत्र एव इति पदं किं करोति इत्युक्ते एव इति अव्ययं वाक्ये नियमयति. नियमयति इत्युक्ते केवलम् इति अर्थे नियमयति. नियमयति इत्युक्ते किं, तत्र नियमनं पूर्वपदस्य नियमनं करोति. नियमनं करोति इत्युक्ते किं, सीमा निर्माति. सीमा इत्युक्ते किं, का बोर्डर्. हा, तत्र अन्य कोऽपि न अथवा अन्यत् किमपि न इति तत्र सीमां निर्माति एवम् इति अव्ययं वाक्ये. एषः एकः अर्थः एव इति पदस्य, अन्यः अर्थः अपि अस्ति. तद् अत्र पश्यामः, तत्र श्लोकः यत् अस्ति तत्र पेज् 141 मध्ये तत्र प्रसिद्धश्लोकः अस्ति, तत्र नूतनतया. हा, श्रीप्रिया भगिनी नमस्कारः. अपि श्रीनिवास महोदय अस्ति वा? श्रीनिवास महोदय नमस्कारः. नमस्कारः महोदय. हा, अस्तु, अत्र ललिता भगिनी, तत्र मध्ये श्लोकः अस्ति एव इति पेज् 141 मध्ये गीतासोपाने, तत् पठति वा भगिनी, सर्वोपनिषदो इति?
अस्तु, सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पात्रो वत्सुधीर्भोक्ता दुग्धं गीतामृतं महत्.
अत्र हा, तदनन्तरम् अत्र अत्र इति अस्ति, तदपि हा तदपि पठतु भगिनि.
उपनिषदः एव गावः. उपनिषद् केवलं
न एकवारं पठतु. हा हा,
उपनिषदः एव गावः. श्रीकृष्णः एव दोग्धा, पार्थः एव वत्सः, बुद्धिमन्तः एव भोक्तारः.
हा, इदानीं तत् तत्र अधोभागे अवधेयम् इति अस्ति, तत् अपि पठतु भगिनि.
अवधेयम् एव इति अव्ययस्य प्रयोगः निश्चय इत्यर्थे क्रियते. निश्चयः इत्यर्थे क्रियते. एतत् अन्यस्य निवारणं करोति. एव इति अव्ययस्य प्रयोगः अपि सप्तभिः विभक्तिभिः युक्तेषु वाक्येषु शक्यः.
अतः तत्र अन्यत् न इति केवलम् एतदेव इति, तद् सः एकः अर्थः. अन्यः अर्थः तत्र निश्चयः तत्र उपनिषदः एव गावः इत्युक्ते तत्र कोऽपि संशयः नास्ति उपनिषदः एव गावः श्रीकृष्णः एव दोक्ता अन्य कोऽपि नास्ति अपि मम संशयः नास्ति अस्मिन् विषये तदपि एतद् एव इति पदेन तद् वाक्यं वदति तत्र निश्चयः अस्ति इति अतः तत्र एव इति तत्र अहं गच्छामि एव इति यदि वदामः तत्र किं भवति अन्य कोऽपि गच्छति न गच्छति इति अर्थः वा अहं गच्छामि एव इति वाक्यं भवति चेत् तत्र अन्य कोऽपि न गच्छति अहमेव गच्छामि इति अर्थः न खलु
खलु
अहं निश्चयेन गच्छामि इति अर्थः अहम् अवश्यं गच्छामि इति भवति अतः एव इति पदस्य पूर्वं यत् यत् दृष्टवन्तः केवलम् इति अर्थे भवति अपि किञ्चित् भेदः अस्ति तत्र किन्तु अत्र निश्चयेनापि तस्य प्रयोगः भवति अतः तत्र एव इति निश्चयरूपप्रयोगः अस्ति अपि केवलम् इति अर्थे अपि प्रयोगः अस्ति अतः तत्र तत्र एकस्मिन् प्रयोगे द्वयमपि भवितुम् अर्हति किन्तु किञ्चित् भेदः इति तद् अवगन्तव्यमस्ति तावदेव अत्र अत्र निश्चयः इति अर्थे अस्ति अपि केवलम् इति अर्थे अपि अस्ति इति वक्तुं शक्नुमः अस्मिन् श्लोके किन्तु अत्र अवधेयम् इति निश्चय वदतु भगिनि पेज् 141 गीतसोपने प्रथमभागे भगिनि पुस्तकं तु आन्लैन् मध्ये लभ्यते खलु भगिनि गीतसोपने प्रथमभागः ईमेल् मध्ये ईमेल् मध्ये तत्र लिङ्क् अस्ति भगिनि तत् क्लिक् करोतु तत्र लभ्यते
समीपे अपि PDF
हा 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 तत्र गीतसोपनं प्रथमभागः तु आन्लैन् मध्ये प्राप्तुं शक्नुमः गावः हा इत्युक्ते गावः इति बहुवचनमस्ति गौ इति शब्दस्य
केवलं
न न अत्र निश्चयः इति तत्र उपनिषदः एव गावः इति श्रीकृष्णः एव दोग्धा वार्ता एव वत्स बुद्धिमन्तः एव भोक्तारः हा अर्थः कः तत्र उपनिषद् यदा वयं पठितुम् इच्छामः तत्र क्लेशः भवति खलु क्लिष्टः अस्ति खलु हा तस्य अर्थः सुलभतया न अवगन्तुं शक्यते खलु हा किन्तु तस्य अर्थः केन वयं अवगन्तुं शक्नुमः तत्र भगवद्गीतया अथवा श्रीकृष्णः तत्र एव दोग्धा इति तेन एव अत्र अत्र चित्रं पश्यतु तत्र
धेनवः इति
धेनवः हा धेनवः
धेनवः
बहुवचनं बहुवचनं हा बहुवचनं श्रीकृष्ण एव दोग्धा
द्विवचनं किमस्ति
गौः गावौ गावः
स्त्रीलिङ्गपदं वा पुल्लिङ्गपदं वा भगिनि
औकारान्त पुंलिङ्गः गोशब्दः
हा स्त्रीलिङ्गे अपि समानम् इति मन्ये
स्त्रीलिङ्गे
गैः 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 गौ गावः
गौः
गौः
तत्र दोग्धा इति दोग्धृ इति उकारान्तपदम् रघुवीरानन्दमहोदय
वाक्यं वाक्यमस्ति महोदय सत्यमेव जयते
हा सत्यमेव जयते समीचीनं महोदय हा तत्र निश्चयेन निश्चयार्थे हा सत्यं महोदय हा समीचीनं हा सः अपि उत्तमम् उदाहरणम् अत्र श्रीकृष्णः एव दोग्धा पातः एव वत्स बुद्धिमन्तः एव भोक्तारः अत्र सर्वम् अवगच्छति अवगच्छन्ति वा श्लोकस्य अर्थः?
आम् महोदय.
अस्तु, अत्र किमपि वक्तव्यमस्ति वा अत्र श्लोकस्य विषये? अन्य कोऽपि एकवारं वदति वा तत्र अर्थः कः इति श्लोकस्य? तत्र उषा भगिनी अथवा श्रीप्रिया भगिनी वक्तुम् इच्छति वा तत्र श्लोकस्य अर्थः कः इति?
उपनिषद्वः
इति चिन्तनीयमस्ति.
श्रीकृष्णः एव दोग्धा, श्रीकृष्णः मिल्क् मेन् लैक् श्रीकृष्णः अस्ति. पार्थः एव वत्सः, वत्सः इत्युक्ते धेनु धेन्वाः कास् इत्युक्ते किं वदनीयं महोदय?
तत्र वत्सः इति एव नाम खलु, सत्यं.
बुद्धिमन्तः एव भोक्तारः.
हा, बुद्धिमन्तः एव भोक्तारः, यत् ये दुग्धं पिबन्ति ते एव दुग्धं पिबन्ति. सत्यं सत्यं भगिनि. हा, किन्तु तत्र एव इति तत्र हा एव इति तत्र एव इति पदम् अस्ति वा तत्र श्लोके?
एव नास्ति महोदय.
हा, किन्तु अर्थे अस्ति. हा, निश्चयः इति अर्थे अस्ति. हा, श्लोके नास्ति, निश्चयः इति अर्थे अस्ति. हा, अस्तु, समीचीनम्. अस्तु, अग्रे गच्छामः. इदानीं तत्र एव इति पदस्य अर्थद्वयमस्ति, अर्थद्वयमस्ति. एकः केवलमिति अर्थे, अन्यः अस्ति निश्चयः इति अर्थे. अस्तु, तर्हि अग्रे गच्छामः. अभ्यासं तत्र पेज् 141 मध्ये अभ्यासः यः अस्ति तं कृत्वा अग्रे इति अपि यत् इति अग्रे विषयः भवति. अस्तु, तर्हि तत्र अभ्यासः तत्र शोभा भगिनी आरम्भं करोति वा तत्र?
आं महोदय. तत्र यथोदाहरणं वाक्यानि पुनः लिखत. यथा भवान् अधुना गृहं गमिष्यति, भवान् कार्यालयं न गमिष्यति. भवान् अधुना गृहम् एव गमिष्यति, कार्यालयं न. तत्र अग्रिमवाक्यं, वयं सर्वे भोजनं करिष्यामः, वयं मधुरं न खादिष्यामः. वयं सर्वे भोजनम् एव करिष्यामः, मधुरं न खादिष्यामः.
हा, समीचीनं भगिनि. अत्र अत्र उदाहरणवाक्ये तत्र एव इति पदस्य अर्थः तत्र निश्चयः इति अर्थे अस्ति वा अथवा केवलम् इति अर्थे अस्ति वा?
केवलम् इति अस्ति तत्र महोदय. हा,
केवलम् इति अर्थे अस्ति. तत् प्राधान्यम् हा, तस्य प्राधान्यम् अस्ति अत्र. हा, केवलम् इति अर्थस्य प्राधान्यम् अस्ति अत्र. समीचीनं भगिनि. हा, अपि यत् वाक्यं भवती पठितवती तत्रापि केवलम् इति एव, केवलम् इति अर्थः सः एव प्रधानः. समीचीनं भगिनि. हा, वंशीसुधा भगिनी नमस्कारः. अपि पूर्णेन्दुमहोदय आसीत् इति मन्ये, अस्ति वा? आं, वंशीसुधा भगिनी नमस्कारः. पेज् 141 मध्ये स्मः भगिनि. हा, अस्तु. हा, अस्तु, अग्रे अग्रिमवाक्यं पठति वा भगिनि?
आं महोदय. ताः विद्यालयं गच्छन्ति, ताः अन्यत्र न गच्छन्ति. ताः विद्यालयम् एव गच्छन्ति, अन्यत्र न.
हा, समीचीनं भगिनि. इदानीं तत्र एव इति पद तत्र ताः एव विद्यालयं गच्छन्ति इति वक्तुं शक्नुमः वा? ताः एव विद्यालयं गच्छन्ति, अन्यत्र न इति वक्तुं शक्नुमः वा?
शक्नुमः महोदय. ताः एव न, क्षम्यतां, यतोहि विद्यालयम् एव गच्छन्ति, परन्तु अन्ये अपि गच्छन्ति किल, तत्र ताः एव इत्युक्ते.
समीचीनं भगिनि. तत्र अतः तत्र
अर्थः भिन्नः.
हा समीचीनं भगिनि. इदानीं तत्र प्रथमवाक्ये तत्र रूपं ताः एव विद्यालयं गच्छन्ति इति अस्ति चेत् तदनन्तरं कीदृशं भवितुम् अर्हति? तत्र अन्ये न गच्छन्ति, अन्ये विद्यालयं न गच्छन्ति इति तादृशभागम् एव अग्रे भवितुम् अर्हति, न तु अन्यत्र न गच्छन्ति इति, खलु? हा समीचीनं भगिनि. अस्तु अस्तु, धन्यवादः. अग्रे चतुर्थवाक्यः तत्र कामाक्षी भगिनी पठति वा?
पुस्तकालये पुस्तकानि सन्ति, पुस्तकालये उत्तरपुस्तकानि न सन्ति. पुस्तकालये पुस्तकानि सन्ति, उत्तरपुस्तकानि न.
हा तत्र एव इति वक्तव्यमस्ति भगिनि. तत्र इदानीं तत्र वाक्यद्वयमस्ति.
पुस्तकालये पुस्तकानि एव सन्ति, उत्तरपुस्तकानि न.
हा समीचीनं भगिनि. हा तत्र वाक्यद्वयम् इति अस्ति, इदानीम् एव उपयुज्य एकवाक्यं वक्तुं शक्नुमः. समीचीनं भगिनि, धन्यवादः. अग्रे तत्र प्रौढपुस्तकानि इति मन्ये भगिनि, तत्र
आन्सर् बुक्स् वा महोदय?
ओ सत्यं सत्यं, प्रौढ इति न, तत्र केवलं टेक्स्ट् बुक्स् लभ्यते इति अर्थे. हा उत्तरपुस्तकानि, हा सत्यं सत्यं, धन्यवादः भगिनि. हा अहम् उत्तर इति प्रौढ इति अर्थे चिन्तितवान्, किन्तु उत्तरं यत् प्रश्नस्य उत्तरं सः एव, तदेव समीचीनं, धन्यवादः भगिनि. हा अग्रे नरेश महोदय अग्रे.
शौचिकः, शौचिकः वस्त्रं सीव्यति, शौचिकः वस्त्रं न वयति.
हा
शौचिकः वस्त्रं सीवति एव न वयति.
वस्त्रं न, पुनः एकवारं वदतु महोदय वाक्यं.
शौचिकः वस्त्रं सीव्यति एव न वयति.
वस्त्रं सीव्यति एव न वयति. हा समीचीनं महोदय. तत्र किमर्थम् एव इति अन्ते भवति? तत्र
केवलं सीव्यति,
न वयति, अतः तत्र क्रियापदस्य केवलं, तत्र नियम, तत्र सीमा कुत्र अस्ति? क्रियापदे अस्ति सीमा, अतः तत्र सीव्यति इति अनन्तरमेव एव इति पदं भवति. यदि कर्मपदे सीमा कर्तुम् इच्छामः तत्र वस्त्रम् एव सीव्यति इति. हा यदि कर्तृपदे सीमा कर्तुम् इच्छामः तत्र शौचिकः एव इति वदामः. अतः अत्र सीव्यति न तु भयति इति कृत्वा तत्र एतद् रूपं स्वीकृतमस्ति. तत्र भयति इत्युक्ते तत्र सीव्यति इति सर्वे जानन्ति, भयति इत्युक्ते
वीविङ्ग् महोदय.
हा वीविङ्ग्, समीचीनं भगिनि समीचीनं. हा यन्त्रेण किमपि करणीयमस्ति, किन्तु सः तद् न करोति. समीचीनं, हा धन्यवादः महोदय. हा अग्रे श्रीनिवास महोदय.
हा महोदय, सिंहः गर्जति, शुकः न गर्जति. उत्तरमस्ति सिंहः एव गर्जति, शुकः न.
हा तत्र सीमा कुत्र अस्ति?
कर्तृपदं,
कर्तृपदे, कर्तृपदस्य सीमा भवति अत्र. समीचीनं महोदय. हा श्रीप्रिया भगिनी अग्रे. श्रीप्रिया भगिनि न श्रूयते भगिनि, श्रीप्रिया भगिनि न श्रूयते. अस्तु रघुवीरानन्द महोदय अग्रे.
आं महोदय, सिंहः गर्जति, शुकः न गर्जति. सिंहः एव गर्जति न शुकः.
हा सत्यं, न तत् कृतं महोदय, तत् कृतम् अग्रे. वृक्षः इति इदानीं
क्षम्यतां महोदय, वृक्षः फलति, काष्ठं न फलति. वृक्षः एव फलति न काष्ठम्।
हा समीचीनं महोदय। हा तत्र सीमा कर्तृपदे अस्ति, वृक्षे इति अस्ति। समीचीनं महोदय। अस्तु अग्रे तत्र हा लक्ष्मी भगिनी अग्रे। लक्ष्मी भगिनी अस्तु न श्रूयते भगिनि। श्रीप्रिया भगिनी
महोदय
श्रूयते वा महोदय?
हा इदानीं श्रूयते भगिनि, इदानीं श्रूयते भगिनि।
काष्ठः इत्युक्ते ड्रैड् वुड् वा महोदय?
हा सत्यं महोदय, सत्यं भगिनि, सत्यं। हा तत्र काष्ठम् इत्युक्ते तत्र प्रायशः तस्य तत् जीवितं तत्र तस्मिन् जीवः नास्ति इति अर्थे, प्राणः नास्ति इति मन्ये। हा काष्ठ यत् होमे तस्य प्रयोगः भवति तादृशः अथवा हा अतः तत्र न फलति इति।
शुष्ककाष्ठम् इति वक्तव्यं वा?
हा तादृश, सत्यं सत्यं भगिनि। हा सत्यं
काष्ठः वुड् वुड्
सत्यं। हा अग्रे श्रीप्रिया भगिनी तत्र अग्रे पठति वा पेज् 142 मध्ये इदानीं।
सज्जनः उपकारं करोति, मूर्खः न करोति। सज्जनः उपकारं करोति, मूर्खः न।
हा अत्र सीमा अस्ति कर्तृपदे, सज्जनः एव, अन्ये न कुर्वन्ति अथवा अन्यः न करोति, मूर्खः न करोति इति। समीचीनं भगिनि। हा लक्ष्मी भगिनी इदानीं न वक्तुम् इच्छति वा? तत्र न श्रूयते। अस्तु हा अग्रे ललिता भगिनी। ललिता भगिनी
सज्जनः
तत् कृतं भगिनि, अग्रे 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 हंसः
न श्रुतवती
भगिनि कृतवती इदानीं। हा
हंसः तरति, मूषकः न तरति। हंसः एव तरति, मूषकः न
तरति। तत्र एकम् एव वाक्यं वदतु भगिनि, तत्र हंसः एव तरति,
मूषकः न।
हा मूषकः न। हा समीचीनं, हा समीचीनं। हा अस्तु इदानीं समीचीनं भगिनि। लक्ष्मी भगिनी इदानीं वक्तुं शक्नोति वा? अस्तु इदानीमपि न श्रूयते भगिनि लक्ष्मी भगिनि। अस्तु उषा भगिनी अग्रे।
मयूरः
अस्तु भगिनि, उषा भगिनी वदति, अग्रिमं भवती पठतु भगिनि।
मयूरः नृत्यति, शुनकः न नृत्यति। मयूरः एव नृत्यति, शुनकः न।
हा समीचीनम्। अस्तु लक्ष्मी भगिनी अन्तिमम्
महोदय, इदानीम् अहं न प्राप्तवती
तत्र आन्लैन् मध्ये अस्ति भगिनि, तत्र ईमेल् लिंक् अस्ति तद्
आन्लैन्
पश्यतु। हा मेल् यत्र मेल् आसीत् तत्र स्मरणपत्रे, स्मरणपत्रे एव अस्ति तत्र।
अहं पश्यामि।
हा मध्ये मध्ये टेबल् इति एकम् अस्ति, कोष्टकम् अस्ति तत्र, तत्र अस्ति लिंक् अस्ति। हा गीतासोपानम् इति। हा अस्तु अग्रे तत्र, हा अग्रे इति तत्र इदानीं शुभा भगिनी अग्रे पठति वा?
आं महोदय। नदी वहति, सागरः न वहति। नदी एव वहति, सागरः न।
हा समीचीनं भगिनि। हा अस्तु इदानीं तत्र अग्रे अपि पठतु भगिनि, इदानीं तत्र श्लोकः यत् अस्ति। हा
एतानि वाक्यानि उच्चैः पठत। अस्माकम् अधिकारः कर्मणि एव अस्ति। अत्र कर्मणि एव इति,
हा न तु फलेषु इति खलु?
आम् आम् न तु फलेषु।
हा तादृश, अतः तत्र किं केवलम् इति अर्थे वा अथवा निश्चयम् इति अर्थे वा?
केवलं कर्मणि एव
हा केवलम् इति अर्थे अस्ति हा तत्र तत् तत्र श्लोकस्य अर्थः प्रायशः क्लिष्टः अपि भवेत् किन्तु अस्माकं कार्यम् अत्र एव इति पदस्य तत्र कीदृशः अर्थः तत्र प्राधान्यार्थः कः निश्चयः इति अर्थे वा अथवा केवलम् इति अर्थे वा इति तद् इति तद् तत् कार्यमिति स्वीकुर्मः नो चेत् क्लिष्टः भवति अस्तु अग्रे नरेश महोदय
जनकादयः कार्येण एव सिद्धिं प्राप्तवन्तः कार्येण एव केवलं कार्येण
तत्र तत्र कार्यम् एव कृतवन्तः अन्यत् न कृतवन्तः सः अर्थः अत्र अस्ति निश्चयः अर्थः अत्र अस्ति वा तदपि अस्ति वा अत्र
निश्चयेन कार्येण एव सिद्धिं प्राप्तवन्तः
कार्येण एव इति केवलं केवलम् एव अर्थः समीचीनं महोदय तत्र कर्मयोगविषयः इति अस्ति तत्र कर्मयोगेन ते सिद्धिं प्राप्तवन्तः इति अस्तु अस्तु अग्रे गच्छामः तत्र तृतीयवाक्यः मधुसूदन महोदय
लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयम् लोकसङ्ग्रहम् एव विचिन्त्य कार्यं करणीयम्
इत्युक्ते यत् कार्यं वयं कर्तुम् इच्छामः तत् लोकसङ्ग्रहं तस्मात् कार्यात् लाभः भवति वा इति तत्र केवलं यः करोति तस्य लाभः न किन्तु तत्र सर्वलोकस्य लाभः भवति वा इति मन्ये लोककल्याणम् इति भवति वा इति तत्र एव इति पदस्य अर्थः कीदृशः महोदय तत्र प्राधान्यार्थः इत्युक्ते मेन् तत्र केवलम् इति अर्थे वा अथवा निश्चयः इति अर्थे वा केवलम् इति अर्थे अस्ति समीचीनं महोदय केवलम् इति तद् अन्यत् विचिन्त्य कार्यं न करणीयं केवलं लोकसङ्ग्रहम् इति विचिन्त्य कार्यं करणीयम् इति तादृश अर्थः अस्ति समीचीनं महोदय अस्तु अग्रे श्रीनिवास महोदय
महोदय सर्वदा कार्यमेव करणीयम् अत्र कर्मपदं कार्यमेव करणीयं फलं चिन्तनीयम्
अत्रापि नियमं तत्र नियमनं करोति केवलम् इति अर्थः प्राधान्यः इति समीचीनं महोदय अस्तु अग्रे श्रीप्रिया भगिनि
ब्रह्मकर्म समाधिना ब्रह्म एव गन्तव्यम् मुख्यत्वमस्ति ब्रह्म इति पदे
समीचीनं भगिनि तत्र ब्रह्म एव गन्तव्यं ब्रह्म एव तत्र केवलम् इति अर्थे एव अस्ति अत्र समीचीनं भगिनि अस्तु वंशीसुधा भगिनि नास्ति वा इदानीं ओ अस्तु अस्तु तर्हि अत्र न दृश्यते भगिनि अत्र अस्तु 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 वदतु भगिनि
ज्ञानेन एव पापनाशः भवति तत्र अहं चिन्तयामि निश्चयेन तत्र भवति महोदय ज्ञानेन एव तत्र
निश्चयः अस्ति अतः समीचीनं भगिनि समीचीनं तत्र ज्ञानेन एव पापनाशः भवति इति तत्र निश्चयः तु अस्ति प्रायशः तत्र केवलम् इति अपि वक्तुम् इति
शक्यते
किन्तु निश्चयः तु अस्ति एव समीचीनं भगिनि समीचीनम् अस्तु अग्रे ललिता भगिनि ललिता भगिनि अस्ति वा
अस्तु अस्तु अन्म्यूट् करोतु श्रद्धावान् एव ज्ञानं प्राप्नोति
अश्रद्धावान् न ज्ञानं प्राप्नोति.
अतः तत्र केवलम् इति अर्थः. समीचीनं, केवलम् इति अर्थे समीचीनं भगिनि. अस्तु उषा भगिनि, तत्र सप्त वाक्यं
ईश्वरमेव शरणं गच्छ. अहं मन्ये निश्चयेन ईश्वरमेव शरणं गच्छ, केवलम् ईश्वरमेव शरणं गच्छन्
तत् न इति
अहं मन्ये महोदय.
अस्तु भगिनि, अस्तु
ईश्वरमेव शरणं.
तत्र निश्चयः इति प्राधान्यमस्ति इति चिन्तनमस्ति वा? अस्तु भगिनि, हा प्रायश तद् अपि वक्तुं शक्नुमः इति मन्ये. किन्तु तत्र केवलम् इति अर्थः अपि अस्ति इति मम चिन्तनं.
केवलं स्वीकरणीयम् इत्युक्ते कः कथं भवति?
अन्यस्य अन्यं न शरणं गच्छ, ईश्वरमेव शरणं गच्छ इति.
अस्तु महोदय.
अत्र तत्र एव इति अस्ति चेत् तत्र द्वयमपि भवितुम् अर्हति भगिनि, तत्र केवलम् एकमेव इति नास्ति. अतः तत्र किं केवलम् एकमेव अस्ति वा अथवा अर्थद्वयमपि भवितुम् अर्हति इति परिशीलनीयम् अस्ति अस्माभिः, तावदेव.
परन्तु किमर्थं तत्र ईश्वरम् एव शरणं गच्छ इति दत्तमस्ति महोदय? यदि केवलमपि अस्ति, निश्चयमपि अस्ति,
द्वयमपि तत्र यथा भगिनि, तत्र श्रीकृष्णः एव दोग्धा इति, तत्र अन्य कोऽपि दोग्धा तत्र निश्चयः इति अस्ति तत्र, हा प्रायशः तत्र केवलमपि अस्ति इति. अस्तु अस्तु न, हा किन्तु वयम् अन्यत् वाक्यं दृष्टवन्तः, खलु तत्र केवलमपि अस्ति, निश्चयः अपि अस्ति इति.
क्रियापदस्य योजनेन तदा भवति
महोदय. श्लोकस्य अर्थं ज्ञात्वा
सत्यं सत्यं, किन्तु किमपि पदं किमपि वाक्यं दृष्टवन्तः इति चिन्तितवान्, किन्तु
अस्तु.
हा अहं गच्छामि एव इति, तत्र केवलं निश्चयः अस्ति किन्तु तत्र केवलम् इति नास्ति तत्र, किन्तु तत्र तत्र अहं गच्छामि एव इति तत्र अस्तु अस्तु एकनिमिष भगिनि, तत्र अहं गच्छामि एव तत्र एकः अर्थः अस्ति निश्चयः, अपि अन्यः अर्थः अहं गच्छामि एव इति, तत्र क्रियापदस्य नियमनमपि भवितुम् अर्हति खलु, केवलम् इति अर्थे अपि भवति. हा किन्तु हा वदतु भगिनि, क्षम्यताम् उषा भगिनि, वदतु इदानीं.
18th chapter 62 श्लोकम् अस्ति महोदय. तमेव चरणं गच्छ सर्वभावेन भारत, तत् प्रसादात् परां शान्तिं स्थानं प्राप्यसि शाश्वतम्. अतः ईश्वरमेव शरणं गच्छ इति मम चिन्तनीयम् अस्ति निश्चयेन.
निश्चयेन, अस्तु भगिनि, अस्तु अस्तु अस्तु, धन्यवादः भगिनि. अस्तु अग्रे गच्छामः इदानीं, तत्र कामाक्षी भगिनी अग्रे पठति वा? इदानीं दुष्टाः ईश्वरम् इति.
दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिम् एव यान्ति.
तत्र एव इति पदस्य तत्र भगिनि केवलम् इत्युक्ते अन्यः कोऽपि, तत्र रमेशः एव मन्दिरं गच्छति इत्र, अत्र तत्र अन्यः कोऽपि मन्दिरं न गच्छति, रमेशः एव मन्दिरं गच्छति इति भवति. किन्तु तत्र अहं गच्छामि एव इति, अहं तत्र मनसि संशयः नास्ति, अहं तत्र गच्छामि एव, अहं मन्दिरं गच्छामि एव इति, तत्र एव इति पदस्य अर्थः भिन्नः अस्ति, तत्र निश्चयं सूचयति. अहं गच्छामि एव, अहं तत् कार्यं करोमि एव इति तत्र निश्चयार्थे अस्ति. अत्रापि तत्र यथा पुस्तके दत्तमस्ति, तत्र उपनिषदः एव गावः, श्रीकृष्णः एव दुग्धः इति तत्रापि निश्चयः अस्ति, तत्र संशयः नास्ति इति. अतः तत्र एव इति पदस्य प्रयोगद्वयं भवति, एकं निश्चय इति, अन्यः केवलम् इति अर्थे. तत्र एकस्मिन् प्रयोगे द्वयमपि भवितुम् अर्हति, केवलमपि निश्चयः. अतः तत्र अत्र किम् अस्ति, अधोगतिम् एव यान्ति, तत्र अन्यत्र ते गच्छन्ति वा, तत्र मुक्तिं प्राप्नुवन्ति वा दुष्टाः?
न.
अतः तत्र केवलम् इति अर्थः अपि अस्ति, अत्र अपि निश्चयः अस्ति, अधोगतिम् एव यान्ति, अधोगतिम् एव यान्ति, तत्र संशयः एव नास्ति. अतः तत्र केवलम् इति अर्थः अपि अस्ति, निश्चयः इति अर्थः अपि अस्ति इति मम इति मन्ये.
महोदय, तत्र दुष्टाः ईश्वरं अज्ञात्वा अधोगतिम् एव यान्ति, तत्र केवलम् अपि च दुष्टाः ईश्वरम् अज्ञात्वा अधोगतिं यान्ति एव वदामः चेत् निश्चयेन इति भवति.
तत्र अस्तु भगिनि, तत्र एव इति वदतु, पुनः वदतु भगिनि.
तत्र यथा अत्र दत्तमस्ति, तत्र एव इत्युक्ते केवलम् अधोगतिं यान्ति इति, यान्ति एव इत्युक्ते निश्चयेन भवति.
अस्तु, सत्यं भगिनि, सत्यं. तत्र एव अन्ते भवति चेत् तत्र निश्चयेन इति तत् अर्थः एव प्राधान्यः. सत्यं सत्यं भगिनि. किन्तु अधोगतम् एव यान्ति, तत्र प्रायशः एतत् यदा वक्ता वदति तत्रापि अर्थभेदः भवितुम् अर्हति वा? किं चिन्तनम्?
ईश्वरं अज्ञात्वा तु अधोगति एव प्राप्तम्, न उन्नतगति किमपि अन्यगति.
सत्यं भगिनि, किन्तु अहम् इदानीम् अन्यप्रश्नः, तत्र यदा वाक्यं पठामः तत्र एम्फोसिस् इति यद्वदामः, तत्र यत् यत्र मुख्यत्वं किमपि प्रदर्शितुम् इच्छामः तत् न ज्ञायते खलु लिखितवाक्ये. किन्तु यदा वदामः तत्र अधोगतिम् एव यान्ति इति, तत्र तादृशार्थे तत्र निश्चयः इति भवति वा केवलमेव इति? किं चिन्तनम् इति केवलं प्रश्नः अत्र मम अत्र
मम
किमपि निश्चयः नास्ति अत्र. केवलमपि इति अतः तत्र, किन्तु लिखितम् अस्ति अतः वयं न जानीमः कुत्र एम्फसिस् अस्ति इति. किन्तु केवलम् इति स्वीकुर्मः, समीचीनमेव अस्ति. अस्तु अग्रे.
समीचीनं स्थानं दृष्ट्वा एव 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 उपयोगं करणीयम्.
एतत् किमस्ति, तत्र तद् संस्कृतेन न वक्तुं जानामि, तत्र सेल्फ् रेफरेन्शियल् इति यत् अस्ति तादृशवाक्यमस्ति एतत् खलु. समीचीनमस्ति, बहु समीचीनमस्ति भगिनि, धन्यवादः. उषा भगिनि, धन्यवादः.
महोदय, अहम् इदानीं प्राप्तवती.
अस्तु भगिनि, लक्ष्मी भगिनि, अस्तु प्राप्तवती वा? समीचीनं भगिनि, समीचीनम्. अस्तु, इदानीं तत्र पेज् 142 मध्ये स्मः.
ईश्वरे एव मनः योजयसि तर्हि सुखं भवति. ईश्वरे एव निश्चयेन, ईश्वरे एव मनः योजयसि तर्हि सुखं भवति.
अस्तु, अन्ये के चिन्तयन्ति?
निश्चयेन इति अहं चिन्तयामि.
निश्चयेन,
अस्तु अस्तु, निश्चयेन इति. अस्तु तर्हि, अस्तु अस्तु, धन्यवादः भगिनि. समीचीनं, सन्तोषः भवती पुस्तकं प्राप्तवती इति. हा समीचीनम्, अस्तु, इदानीम् अग्रे गच्छामि. हा हा, इदानीं नूतनविषयः एव इति समाप्तं, च अपि एव इति समाप्तम्. इदानीं नूतनविषयः इति विषयः, इति विषयः, तत्र इति अपि तस्य सम्बद्ध अन्य अन्यत् अव्ययम् अस्ति, तदस्ति यत् इति. तत्र पश्यामः इति पदस्य परिचयः प्रथमं, तदनन्तरं यत् इति अव्ययस्य परिचयः अग्रे. अस्तु तर्हि तत्र मधुसूदन महोदय, तत्र अपि अन्य कोऽपि कः पठति तत्र? हा श्रीनिवास महोदय, तत्र अर्जुनः अपि कृष्णः इति सम्भाषणं कुर्वन्ति वा?
अर्जुनः कृष्ण मां क्षमस्व.
श्रीनिवास महोदय.
आम् महोदय, कृष्णः पार्थ, किमर्थं त्वं क्षमां याचते?
अहं तव महत्त्वं न ज्ञातवान्, त्वं मम सखा इति मत्वा व्यवहृतवान्. त्वं सामान्यः इति विचार्य यादव सखी इति सम्बोधितवान्.
कृष्ण पार्थ, चिन्तां मा कुरु, अज्ञानं ज्ञानम् अवृणोति इति जानीहि, तेन जन्तवः मुह्यन्ति इति अपि, परन्तु वृद्धाः तु अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते. तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि. त्वम् इदानीं ज्ञानं प्राप्तवान् असि.
कृष्ण, मम मोहः नष्टः इति, स्मृतिः लब्धा इति च चिन्तयामि.
अनुगृहीतो अस्मि. समीचीनं, धन्यवादः. धन्यवादः. तत्र अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः, तत्र अर्जुनः कृष्णः मां क्षमस्व, तत्र क्षम्यताम् इति तादृश, मां क्षमस्व. कृष्णः वदति पार्थ, सम्बोधनं कृष्ण पार्थ इति तत्र सर्वत्र सम्बोधनं. किमर्थं त्वं क्षमां याचसे? क्षमाम् इति कर्मपदं, किमर्थं त्वं कर्तृपदं याचसे? किमर्थं त्वं क्षमां याचसे? क्षमा स्त्रीलिङ्गपदं, क्षमां तस्य द्वितीयविभक्तिरूपं. तत्र अर्जुनः वदति इदानीम्, अहं तव महत्त्वं न ज्ञातवान्, त्वं मम सखा इति मत्वा इति चिन्तयित्वा व्यवहृतवान्, व्यवहारं कृतवान्, सम्भाषणं क्रीडा सर्वं कृतवान् मत्वा चिन्तयित्वा. मम सखा भवान्, मम सखा त्वं, मम सखा इति मत्वा व्यवहृतवान्. त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्. तत्र यादव सखे इति उपयुज्य अहं सम्बोधनं कृतवान्, किन्तु भवान् केवलं यादवः न, सखी सखः न, किन्तु सखा न, किन्तु भवान् सामान्यः न इति इदानीं जानामि, किन्तु तत् चिन्तयित्वा अहं तादृशं कृतवान्. कृष्णः इदानीं वदति, पार्थ, चिन्तां मा कुरु, अज्ञानं ज्ञानम् आवृणोति इति जानीहि, तत्र आवृणोति आवरणं करोति ज्ञानम् अस्ति आवरणम् इत्युक्ते तत्र वयं जानीमः खलु आवरणे रिक्तस्थानानि पूरयत इति आवरणे दत्तानि पदानि उपयुज्य रिक्तस्थानानि पूरयति इति अस्ति खलु तत्र आवरणे इत्युक्ते किं ब्राकेट् इति एकः अर्थः किन्तु अन्यत् अर्थः किम् अस्ति आवरणः इति न न कवर् 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 अथवा अथवा बौण्ड्रि इति आवरणः इति बौण्ड्रि अथवा अत्र कवर् इत्यर्थे तत्र अज्ञानं ज्ञानम् आवृणोति तत्र एतत् चिन्तयतु मध्ये हा मध्ये ज्ञानम् अस्ति किन्तु तस्य सर्वत्र तत्र अज्ञानम् अज्ञानेन तत् ज्ञानम् आवृतम् अस्ति अतः तत्र ज्ञानं न द्रष्टुं शक्यते केवलम् अज्ञानम् एव दृश्यते तादृश तत्र ज्ञानम् अज्ञानं ज्ञानम् आवृणोति इति जानीहि इदानीं त्रिवारम् इति पदम् आगतं त्वं मम सखा इति मत्वा त्वं सामान्यः इति विचार्य अज्ञानं ज्ञानम् आवृणोति इति जानीहि जानीहि इति कीदृश क्रियापदं लकारः कः कोऽपि वदति वा
मध्यमपुरुष लोट् लकार
लोट् लकारः हा देहि त्राहि इति पाहि जानीहि समीचीनम् अपि तत्र हा तेन जन्तवः मुह्यन्ति इति अपि इदानीं तत्र तेन इत्युक्ते केन अज्ञानेन जन्तवः मुह्यन्ति इति अपि इदानीं तत्र अपि इति पदम् अस्ति अपि इति पदेन किं कः अर्थः तत्र अपि अस्ति चेत् वयं जानीमः तत्र अपि इति अस्ति चेत् तस्य पूर्वं तत्र किमपि अस्ति इदानीं सः एव अत्रापि भवति तत्र सः खादति अहमपि अस्ति चेत् खादति इति एव अत्रापि अन्वयः भवति अहमपि खादामि इति अत्र किमस्ति
आवृणोति
अज्ञानं ज्ञानम् आवृणोति इति जानीहि हा तेन जन्तवः मुह्यन्ति इति अपि जानीहि इति अपि जानीहि समीचीनं हा तदपि जानातु परन्तु बुधाः बुधाः इत्युक्ते यः तत्र जन्तवः इति अस्ति तस्य विरुद्धार्थकः इति अथवा ज्ञानिनः इति हा तत्र बुधाः तु किं कुर्वन्ति अहं सर्वस्य प्रभवः इति मत्वा इति चिन्तयित्वा पुनः तत्र इति अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते मां भजन्ते बुधाः मां भजन्ते किमर्थं भजन्ते अहं सर्वस्य प्रभवः इति मत्वा ते मां भजन्ते तेषाम् इति किम् अस्ति तत्र केषां हा तेषाम् अज्ञानझं तमः तत्र अज्ञानझम् इति अस्ति अज्ञानझम् इत्युक्ते अज्ञानेन यद् यस्य जन्म भवति अथवा हा तत्र अज्ञानझम् इति तत्र अज्ञानं जनकः अज्ञानझं पुत्रः इति हा तादृशार्थे तत्र अथवा पुत्री इति तत्र अज्ञानजं यद् यस्य जन्म भवति अज्ञानेन यद् भवति तमः यद्भवति अहं ज्ञानदीपेन नाशयामि हा तत्र किं नाशयामि श्रीकृष्णः वदति नाशयामि इति किं नाशयामि इति वदति सः तमः ज्ञानदीपेन नाशयामि तमः इति अस्ति अतः तत्र तेषाम् अज्ञानझं तमः इति अस्ति अहं ज्ञानदीपेन नाशयामि तत्र तमः इति पदमस्ति तत्र कीदृशपदम् इति चिन्तनं
मनः
लिङ्गं किं
नपुंसकलिङ्गम् अस्ति वा
महोदय? नपुंसकलिङ्गपदम् इति अच्छा, तत्र यदि पश्यामः तत्र रामः शब्दः इव अस्ति खलु, विभक्ति तत्र पदस्य विभक्ति का तत्र?
तमः
वाक्ये दृष्ट्वा वक्तव्यं, तत्र स्पोकन् सान्स्क्रिट् अथवा अन्यत्र दृष्ट्वा न
वक्तव्यं,
केवलं केवलं
तत्र
कर्मपदं कर्म समीचीनं कर्मपदम् अस्ति इति कृत्वा तत्र जानीमः तत्र तमः इति पदस्य विभक्ति द्वितीया. अज्ञानजं तमः, तत्र विशेषणविशेष्यभावः कीदृशतमः? अज्ञानजं तमः इति, अज्ञानजं तमः, तत् तमः नपुंसकलिङ्गे अस्ति इति कृत्वा तत् तमः अहं ज्ञानदीपेन नाशयामि, त्वम् इदानीं ज्ञानं प्राप्तवान् असि इति. कृष्ण मम मोहः नष्टः इति, स्मृतिः लब्धा इति च चिन्तयामि. इदानीं तत्र इति द्विवारम् आगच्छति, तदनन्तरं च इति अस्ति. च अस्ति चेत् जानीमः तत्र समूहः अस्ति इति. तत्र अत्र कः समूहः? मम मोहः नष्टः इति वाक्यं, स्मृतिः लब्धा इति वाक्यं, तत्र वाक्यद्वयम् एव समूहः. तत् लब्धा इति, अतः तत्र वाक्यद्वयं कुर्मश्चेत् किं भवति? मम मोहः नष्टः इति चिन्तयामि, मम स्मृतिः लब्धा इति चिन्तयामि, अतः तत्र इति च चिन्तयामि, इदानीम् अनुगृहीतोऽस्मि इति. अस्तु, अत्र अस्मिन् सम्भाषणे किं तत्र इति च अपि सर्वम् अस्ति, किन्तु इति नूतनविषयः. तत्र इति तस्य साधारणप्रयोगः अस्ति तत्र कोट् अन्कोट् इति, यथा किमपि अन्य कोऽपि उक्तवान् अथवा उक्तवती तदेव यदि वक्तुम् इच्छामः तत्र इति पदस्य प्रयोगः भवति. अग्रे पश्यामः. अस्तु, तत्र
द्वित्रा भवितुम् आवश्यकं वा महोदय? मम मोहः नष्टः, स्मृतिः लब्धा इति च एकवारं वक्तुं शक्नुमः वा? इति उभयोः
वाक्ये
अपि
तत्र अहं चिन्तयामि तत्र नष्टः. अस्तु, तत्र किं तत्र तत् कुर्मः चेत् मम मोहः नष्टः, स्मृतिः लब्धा च इति चिन्तयामि इति तादृशरूपम् इति वा? तत्र एकवारमेव इति भवति चेत्, किन्तु चकारस्य च इति आवश्यकं खलु?
च आवश्यकं महोदय, इति च इति एकवारं वदामः चेत् सम्यक् वा? अतः तत्र नष्टः पुंलिङ्गे, लब्धा स्त्रीलिङ्गे अस्ति,
तेन किमपि न किमपि नास्ति. हा, तत्र मम मोहः नष्टः, स्मृतिः लब्धा, तत्र मोहः नष्टः, तत्र नष्टः इति किमस्ति? विशेषणमस्ति मोहपदस्य. स्मृतिः इति पदस्य विशेषणमस्ति लब्धा, कीदृशी स्मृतिः? लब्धा स्मृतिः इति. अतः तत्र प्रायशः एकवारम् अपि तत्र प्रयोगं भवितुम् अर्हति, किन्तु अत्र प्रायशः अर्थ अवगमन सुलभं भवति यदि द्विवारम् अस्ति चेत्.
तर्हि तत्र मम मोहः नष्टः, स्मृतिः लब्धा च इति चिन्तयामि,
तादृशरूपम् अस्ति इति मन्ये भगिनि.
तर्हि तत्र कोटेशन्स् मध्ये स्थापनीयं प्रायः, कोट्स् मध्ये.
हा, प्रायशः सत्यं सत्यं सत्यं. हा, इदानीं तत्र कोटेशन् न आवश्यकं, किन्तु तादृशं कुर्मश्चेत् प्रायशः कोटेशन् आवश्यकं. सत्यं सत्यं भगिनि, तादृशम् इति इति अहमपि मन्ये. अस्तु, इदानीम् अन्यः प्रश्नः. समीचीनं वा शोभा भगिनि?
समीचीनं महोदय, धन्यवादः. तत्र कोटेशन्स् इत्यस्य सन्देहः अस्ति, किन्तु
अस्तु चिन्तनं कुर्मः.
समीचीनं
चिन्तनं कुर्मः. रघुवीर अनन्तमहोदय, प्रश्नः अस्ति वा अथवा किमपि वक्तुम् इच्छति वा?
महोदय, तत्र किम् एकः बिन्दुः अस्ति महोदय, इति अनुबन्धरूपेण अपि कार्यं करोति, इत्युक्ते एज़् अ मार्कर् वाक्य अन्ते इति अपि सूचयति. ओम् तत् इति गीतायामपि अध्ययः अन्तम् इति अपि सूचयति महोदय इति.
सत्यं सत्यं महोदय, सत्यं सत्यं, धन्यवादः. तत्र अत्र सम्भाषणे तत्र तत्र मम मोहः नष्टः इति, तत्र सः तदेकं वाक्यम् इति भवतः चिन्तनं वा?
अत्र अस्ति प्रायः, अत्र तु बहु लघुवाक्यमस्ति अतः तथैव न दृश्यते, किन्तु भाष्याणि यदि पठन्ति चेत् इति आवश्यकपदम्.
सत्यं 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 सत्यं, अवगच्छामि अवगच्छामि महोदय. परिच्छेद वाक्यं परिच्छेद इव बृहत् भवति, किन्तु तस्य अन्ते इति भवति, अतः वयम् अवगच्छामः. अस्तु, एष एतदेव. अस्तु महोदय, समीचीनं.
भाष्यानि एकेपि सन्ति अन्तिमं पदम् इति तत् सूत्रं सूचयति चेत् अहो तदा आरभ्य अतः अन्तः भवति इति.
सत्यं सत्यं, सत्यं महोदय, अवगच्छामि. समीचीनं समीचीनम्. इदानीं तत्र तत् अत्र यत् दत्तमस्ति तत् प्रायशः अग्रे यानि वाक्यानि दत्तानि सन्ति तत्र कोट्स् इति अर्थे एव तत्र इति पदस्य प्रयोगः भवति इति मन्ये, पश्यामः. तदनन्तरं यतोहि अग्रे यः विषयः आयाति तद् सः विषयः अस्ति यत् इति, तत्रापि कोट्स् इति एव विषयः, अतः तत्र सः एव प्राधान्य अर्थः अत्र ते वक्तुम् इच्छन्ति इति मन्ये, तेषाम् आशयः अत्र. अस्तु, अग्रे तत्र किं भगिनि?
अहं वदामि वा?
एकनिमिष शोभा भगिनि, एकनिमिष. प्रभवः इति पदः इति वा?
आम् महोदय.
तत्र प्रभवः इति किं तत् एकवचने अस्ति वा अथवा बहुवचने इति प्रश्नः वा किम्? सर्वस्य प्रभु न न क्षम्यतां क्षम्यतां न न न प्रभवः इत्युक्ते तत्र यस् जनकः इति अर्थे भगिनि, जनकः. तत्र प्रभु इति पदस्य बहुवचनरूपं नास्ति अत्र.
भवामि इति
किं भगिनि?
भवामि इति अस्ति महोदय, भवामि. प्रभवः
सर्वस्य प्रभवः, सर्वस्य प्रभवः,
सर्वस्य प्रभवः.
ऐ एम् द सोर्स.
सोर्स्, अतः जनकः इति
किन्तु तत्र सर्वे तत्र किं भवन्ति?
सर्वे भवन्ति
भवन्ति किमर्थं सर्वे भवन्ति? तस्य कारणेन इति.
अहमेव कारणम्, अहमेव कारणं सर्वेषां प्रति इति भवती वक्तुमिच्छति खलु? तत्र श्रीकृष्णस्य वचनं तत्र अहं सर्वस्य प्रभवः इत्युक्ते अहमेव सर्वेषां कारणम् इति.
तत्र भवान्
तथा चिन्तितवती. अतः अहं तत्र कारणं कारणम् अपि जनकः इति तत्र कारणम् इत्युक्ते जनकः इति मया उक्तं भगिनि.
महोदय अहं सर्वस्य प्रभवः
न भगिनि प्रभवः इति न तत्र सर्वस्य प्रभवः अत्र तत्र सर्वस्य अपि अस्ति प्रभवः इति ओम्निसियन्स् अथवा ओम्नि प्रेसेण्ट् इति तत्र सर्वस्य इति किमर्थम् अस्ति खलु प्रभवः प्रभवः इति
उपसर्गपूर्वकं भूधातु अस्ति वा अथवा अन्य किमपि अस्ति वा महोदय
द्रष्टव्यम् अस्ति भगिनि तत्र किन्तु तत्र जनकः अथवा कारणम् इति अर्थे अत्र अस्ति. श्रीप्रिया भगिनी समीचीनं वा? अत्र प्रभुः इति पदस्य यथा गुरुः गुरु गुरवः प्रभुः प्रभु प्रभवः सः पद तत् पदं नास्ति अत्र
जनकः
एकवचने अस्ति तत्र अत्र अहं सर्वस्य प्रभवः एकवचने अस्ति तत्र कारणं जनकः अथवा हा यस्मात् सर्वम् अभवत् इति यस्मात् एतत् सर्वं सृष्टिः सर्वम् अभवत् इति तत्र कारणम् इत्यर्थे. एतत् समीचीनं वा शोभा भगिनी?
आं महोदय अहं तत्र पूर्वस्मिन् वाक्ये कोटेशन् इति तत्र चिन्तनमस्ति महोदय मम मोहः नष्टः इति स्मृतिः लब्धा इति चिन्तनमस्ति अतः तत्र कोटेशन् न आगच्छन्ति इति अहं मन्ये महोदय. यदि यदा वयं वदामः अन्येकं
अस्तु अर्जुनः इति अर्जुनः इति चिन्तयति इति वक्तुम् इच्छामि
तत्र.
अस्तु भगिनि अतः इदानीम् अस्तु तदपि समीचीनमेव. अस्तु इदानीं किं कुर्मः अत्र इदानीम् अस्माकं मम चिन्तनमस्ति अत्र प्रायशः इति द्विवारस्य आवश्यकता प्रायशः अस्ति.
समीचीनमेव तत्र कोटेशन् मार्क् प्रायः न आगच्छन्ति.
किन्तु भगिनि एतत्तु अङ्गीकर्तव्यमस्ति तत्र इति एकवारम् आसीत् तत्र प्रायशः अवगमने क्लेशः भवति इति कृत्वा इति द्विवारमस्ति चेत् सुलभतया अवगन्तुं शक्नुमः
खलु
तत्तु अस्तु खलु. अस्तु तर्हि
धन्यवादः महोदय.
अस्तु धन्यवादः भगिनि. अस्तु अग्रे गच्छामः.
द्वयमपि अस्तु महोदय
लब्धा. सत्यं सत्यं भगिनि विषयद्वयम् अस्ति सत्यं. अस्तु इदानीं तत्र अग्रे गच्छामः. तत्र रघुवीरानन्दमहोदय अग्रे पठति वा तत्र एतानि वाक्यानि इति
महोदय. एतानि वाक्यानि उच्चैः पठत. संस्कृतम् एव राजभाषा भवेत् इति डाक्टर् भि सः अचिन्तयत्.
अतः तत्र कोटेशन् मार्क्स् एतत् तस्य चिन्तनम् अम्बेड्कर् महोदयस्य चिन्तनं संस्कृतमेव राजभाषा भवेत् इति.
योगक्षेमं वहाम्यहम् इति श्रीकृष्णः अवदत्
नवमध्यायन्ति
मम गात्राणि इति अर्जुनः अवदत्. विमृश्यैतदशेषेण यथेच्छसि तथा कुरु इति श्रीकृष्णः उक्तवान्. तदात्मानं सृजाम्यहम् इति कः उक्तवान्?
इदानीं तत्र इति प्रयोगस्य अवगमनम् अभवत् इति मन्ये खलु. तत्र इति उपयुज्य कोटेशन् मार्क्स् इति तादृशरूपं कर्तुं शक्नुमः. धन्यवादः महोदय. अस्तु अग्रे वंशीसुधा भगिनी अग्रे पठति वा अवधेयम् इति यद् अस्ति.
आम् महोदय. अवधेयम् यदा कस्यापि अन्यस्य जनस्य ग्रन्थस्य वा वचनं कथनं सन्देशः इत्यादीनाम् उद्धरणं क्रियते तदा वचन कथन सन्देशादीनाम् अन्ये इति अव्ययस्य प्रयोगः भवति. इति अव्ययात् पूर्वं वचनं कथनं वा यथावत् उच्यते. यथा अहम् अद्य एव मिलामि इति नागेन्द्रः अवदत्. तत्र अन्यस्य वचनं कथनं सन्देशः कस्यापि अन्यस्य जनस्य ग्रन्थस्य वचनं तत्र पूर्वं यदि किमपि वचनं भवेयुः अथवा कथनं अथवा सन्देशः भवेयुः तत्र इति प्रयोगेन इदानीम् उद्धरणं क्रियते तदा वचनं
भगिनि तत्र उद्धरणमिति उद्धरणम् इत्युक्ते कोटेशन् इति भगिनि. तत्र अहं अहं भगवद्गीतायां किमपि पश्यामि तद् तद् मह्यं रोचते अहं किं करोमि तद् तद् वाक्यं स्वीकृत्य अहम् अन्यत्र किमपि लिखामि तत्र एतद् वाक्यं यथा अस्ति तथा एव स्थापयामि. इदानीम् अहं किं कृतवान् तस्य उद्धरणं कृतवान् तत् कोट् करोमि. अतः तत्र उद्धरणम् इत्युक्ते कोट्. कस्य कस्यापि अन्यस्य जनस्य अथवा ग्रन्थस्य वचनं वा कथनं वा सन्देशः वा तेषाम् उद्धरणं क्रियते कर्तुम् इच्छामः उद्धरणं कोट् कर्तुम् इच्छामः तदा वचनं वा कथनं वा सन्देशादीनाम् अन्ते इति अव्ययस्य प्रयोगः भवति यथा वयं दृष्टवन्तः खलु.
आम् महोदय.
तत्र तस्य अत्र केवलं तेषाम् अत्र उपरि तेषां वचनमेव दृष्टवन्तः किन्तु तत्र अहम् अद्य एव मिलामि तत् प्रायशः सन्देशः अपि भवेत् न जानामि किन्तु वचनं वा कथनं वा सन्देशः वा तादृशं यत्किमपि यथा उक्तम् अथवा यथा लिखितं तथैव वक्तुम् अथवा लेखितुम् इच्छामः तत्र उद्धरणम् इति भवति. तत्र इति पदस्य प्रयोगः भवति अव्ययस्य प्रयोगः भवति. समीचीनं वा भगिनि वंशीसुधा भगिनि? अस्तु इदानीम् अग्रे श्रीनिवास महोदय अग्रे पठति वा तत्र अभ्यासः.
महोदय अभ्यासः इति शब्दं प्रयुज्य वाक्यानि पुनः लिखत. अहम् अद्य एव कार्यं पूर्णं करिष्यामि नवीनः अवदत्. अहम् अद्य एव कार्यं पूर्णं करिष्यामि इति नवीनः अवदत्.
हा तावदेव महोदय तावदेव तावदेव तत्र क्लेशः किमपि नास्ति. हा अस्तु अग्रे कामाक्षी भगिनी अग्रे.
सत्यम् एव जीवनस्य आधारशिला इति महात्मा गान्धिः अचिन्तयत्.
हा समीचीनं भगिनि समीचीनं. हा सत्यमेव जीवनस्य आधारशिला इति महात्मा गान्धिः अचिन्तयत्. समीचीनं भगिनि. हा अस्तु अग्रे उषा भगिनि.
आं महोदय. राष्ट्राय इदं न मम श्रीगुरुजिः चिन्तितवान्. राष्ट्राय इदं न मम इति श्रीगुरुजि चिन्तितवान्.
हा चिन्तितवान् हा इति सः तस्य चिन्तनम् आसीत्. हा लक्ष्मी भगिनी अग्रे.
आम् आम् महोदय. भवन्तः मह्यं रक्तं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि सुभाषचन्द्रबसुः उद्घोषितवान्.
इदानीं तत्र किं स्थापनीयं मध्ये?
भवन्तः मह्यं रक्तं यच्छन्तु, अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि इति सुभाषचन्द्रबसुः उद्घोषितवान्.
उद्घोषितवान्, समीचीनं भगिनि. तावदेव, तावदेव समीचीनं. अस्तु, अग्रे उषा भगिनि.
परन्तु महोदय, सुभाषचन्द्रबोस् एतत् उक्तवान् वा? अहं न पठामि,
न जानामि भगिनि. यत् दत्तमस्ति तत् स्वीकरोमि, तावदेव.
निश्चयेन सः
निश्चयेन सः अवदत् वा महोदय, नरेश महोदय?
आं महोदय, सः अवदत् सुभाषचन्द्रबोस्.
अस्तु अस्तु, धन्यवादः महोदय, धन्यवादः.
भवन्तः मह्यं रक्तं यच्छन्तु इत्युक्ते प्राणं यच्छन्तु इति अर्थमस्ति वा महोदय?
प्राणं न, रक्तं. Give me the blood, I will give you the freedom.
Army independence.
Give me the blood, I will give you the freedom. Yeah, blood.
अस्तु, धन्यवादः महोदय, धन्यवादः. न ज्ञातवान्. अस्तु, समीचीनं. उषा भगिनी, अग्रे.
अहं पठितवती न महोदय.
क्षम्यतां, क्षम्यतां भगिनि. अस्तु, अग्रे शुभा भगिनि.
महोदय, बालाः धरायाः पुष्पाणि, रवीन्द्रनाथठाकुरस्य चिन्तनम् आसीत्. बालाः धरायाः पुष्पाणि इति रवीन्द्रनाथठाकुरस्य चिन्तनम् आसीत्
इति. समीचीनम्. इदानीं तत्र किं कुर्मः, तत्र अध्ययव एतदपि कर्तुं शक्नुमः इति मन्ये, अथवा एतद् अस्तु. अग्रे अग्रिम अभ्यासः अस्तु. इदानीं प्रायश अग्रिमे पुटे तत्र यत् इति अस्ति तदपि आरम्भं कुर्मः अद्य एव. अतः तत्र शोभा भगिनी, अग्रे अग्रिमे पुटे तत्र यत् इति मध्ये अस्ति भगिनी, तत् पठति वा?
आम् महोदय. उच्चैः पठत जानीत च यत् इति अव्ययं तत्र. युद्धं न करोमि इति मा वदतु. मा वदतु यत् युद्धं न करोमि. कुरुक्षेत्रे युयुत्सवः किम् अकुर्वत इति धृतराष्ट्रः पृष्टवान्. धृतराष्ट्रः पृष्टवान् यत् कुरुक्षेत्रे युयुत्सवः किम् अकुर्वत. अग्रे अपि पठामि
वा?
मम पूर्वजन्मानि कानि इति अहं स्मरामि. अहं स्मरामि यत् मम पूर्वजन्मानि कानि
इति. अतः तत्र इदानीं तत्र उदाहरणानि दृष्ट्वा वयं ज्ञातुं शक्नुमः तत्र इति अपि यत् तयोः मध्ये कोऽपि सम्बन्धः अस्ति इति. यत्र इति प्रयोगः भवति तत्र यत् इति पदस्य अपि प्रयोगः भवितुम् अर्हति. किन्तु वाक्यस्य रूपस्य परिवर्तनं भवति. तत्र युद्धं न करोमि इति मा वदतु इति वाक्यमस्ति, किन्तु यत् भवति चेत् किं भवति? मा वदतु यत् युद्धं न करोमि. अतः तत्र किं भवति, इति वाक्यस्य मध्ये अस्ति, अतः भागद्वयमस्ति इति चिन्तनं कुर्मः. इति पूर्वम् एकं वाक्यं, तदनन्तरं किमपि अस्ति. यत् इति प्रयोगे किं भवति भागद्वयस्य?
एकमेव वाक्यं भवति.
अत्रापि एकमेव वाक्यं, किन्तु तत्र रूपं कीदृशं भवति?
मा वदतु
इति द्वितीयभागं, मा वदतु इति
आदौ आगच्छति मा वदतु
हा मा वदतु इति आदौ आगच्छति इति पूर्वं यद् अस्ति तद् यत् अनन्तरम् आगच्छति अतः तत्र भागद्वयम् इति चिन्तनम् अस्ति चेत् प्रथमभागः द्वितीयभागः इति मध्ये अस्ति किन्तु यत् इति प्रयोगं कुर्मः तत्र द्वितीयभागः आदौ भवति प्रथमभागः अन्ते भवति तावदेव तत्र रिवर्स् इति विपरीतं रूपेण भवति अपि अन्यत् भवति तत्र द्वितीयवाक्ये किम् अस्ति तत्र इति अस्ति चेत् तत्र उद्धरणम् इति रूपेण स्वीकृतम् अस्ति अतः कोट्स् अस्ति किन्तु यत् भवति चेत् तत्र कोट्स् कोटेशन् मार्क्स् नास्ति तावदेव तावदेव अतः तत्र यत् अस्ति चेत् इति अपि वक्तुं शक्नुमः इति अस्ति चेत् यत् अपि इति कर्तुं शक्नुमः इदानीं तत्र यत् यः यम् अभ्यासं वयं कृतवन्तः तमेव अभ्यासम् इदानीं यत् इति रूपेण वक्तुं प्रयत्नं कुर्मः तत्र हा नरेश् महोदय तत्र इदानीं तत्र पेज् 143 मध्ये एव तृतीय अभ्यासः यद् वयं कृतवन्तः यम् अभ्यासं वयं कृतवन्तः किन्तु तत्र इति न यत् इति उपयोगे
अहम् अद्य एव कार्यं पूर्णं करिष्यामि नवीनः अवदत् नवीनः अवदत् यत् अहम् अद्य एव कार्यं पूर्णं करिष्यामि
हा समीचीनं सर्वे अवगच्छन्ति खलु प्रश्नः अस्ति वा अत्र यत्र इति अस्ति तत्र रूपपरिवर्तनं कृत्वा यत् इति प्रयोगः पदस्य प्रयोगः भवति तत्र इदानीं द्वितीयवाक्यं तत्र मधुसूदन महोदय द्वितीयवाक्यं
सत्यम् एव जीवनस्य आधारशिला महात्मा गान्धिः अचिन्तयत् सत्यम् एव सत्यम् एव यत् जीवनस्य आधारशीला
न न महोदय तत्र महोदय एतत् कुर्मः तत्र इति भवति चेत् तत्र वाक्यं किं भवति
सत्यम् एव इति
न न सत्यं कोटेशन् मार्क्स् अस्ति कोटेशन् मार्क्स् तदनन्तरम् इति भवति
सत्यमेव जीवनस्य आधारशिला इति महात्मा गान्धिः अचिन्तयत्
हा तत्र इति पदस्य प्रयोगः कः इति जानाति खलु इदानीम् इति अस्ति चेत् तस्य पूर्वं यदस्ति तद् कोट् अस्ति साक्षात् यद् उक्तं तदेव वाक्यम् अत्र अस्ति इति अस्ति अतः किन्तु इदानीं तत्र किं कुर्मः यत् अस्ति चेत् तत्र वाक्यम् अन्ते भवति तत्र महात्मा गान्धिः अचिन्तयत् इति प्रथमं वदामः तदनन्तरं यत् इति प्रयोगं यत् इति भवति तदनन्तरं यत् सः उक्तवान् तद् वदामः तत्र पेज् 144 पेज् 144 पश्यतु महोदय पुनः तत्र द्वितीयवाक्यं तत्र मध्यभागे कुरुक्षेत्रे इति अस्ति खलु द्वितीयवाक्यं तत् एकवारं पठतु महोदय
धृतराष्ट्रः धृतराष्ट्रः पृष्टवान् यत् कुरुक्षेत्रे युवत्व किम् अकुर्वत्
तस्य उपरि किं वाक्यमस्ति
कुरुक्षेत्रे युवोत्सवः किम् अकुर्वत इति धृतराष्ट्रः पृष्टवान्
तत्र धृतराष्ट्रः पृष्टवान् अन्ते अस्ति सः किम् उक्तवान् इति सः किं पृष्टवान् इति आदौ अस्ति इदानीं यत् भवति चेत् किं भवति धृतराष्ट्रः पृष्टवान् इति आदौ अस्ति तदनन्तरं कुरुक्षेत्रे युत्सव किम् अकुर्वत इति अस्ति खलु तत्र रिवर्स् भवति इति अतः अस्मिन् वाक्ये किं भवति महात्मा गान्धी सत्यमेव जीवनस्य आधारशिला
महात्मा गान्धी महोदय अचिन्तयत् यत् सत्यमेव जीवनस्य आधारशिला
हा इति समीचीनं महोदय समीचीनं हा समीचीनं महोदय श्रीनिवास महोदय अग्रे किं महोदय अर्थसमानम् अर्थसमानं केवलं रूपभेदः अर्थभेदः नास्ति सत्यं महोदय समानार्थकपद वाक्यं समानार्थकवाक्यं सत्यं हा श्रीनिवास महोदय
राष्ट्राय इदं न मम श्रीगुरुजी चिन्तितवान् श्रीगुरुजिः चिन्तितवान् यत् राष्ट्राय इदं न मम
इति समीचीनं महोदय समीचीनम् अस्तु अग्रे वंशीसुधा भगिनी
आं महोदय तृतीयं द्वितीयम् अभवत् किल महोदय भवन्तः चतुर्थं भवन्तः मह्यं रक्तं यच्छन्तु अहं भवद्भ्यः स्वातन्त्र्यं दास्यामि सुभाषचन्द्रबसुः उद्घोषितवान् सुभाषचन्द्रबसुः उद्घोषितवान् यत् भवन्तः मह्यं रक्तं यच्छन्तु अहं भवद्भ्यं स्वातन्त्र्यं दास्यामि भवद्भ्यः स्वातन्त्र्यं दास्यामि
इति न समीचीनं भगिनि इति मम तत्र वाक्ये नास्ति श्रीप्रिया भगिनी
परन्तु अहं सर्वे इति एव उपयोगं कृत्वा एव वाक्यानि रचितवन्तः
सत्यं भगिनि यदा केवलम् उद्धरणं कुर्मः खलु उद्धरणसमये तत्र इति भवति अथवा यत् इति भवति अतः
बालाः धरायाः पुष्पाणि रवीन्द्रनाथठाकुरस्य चिन्तनम् आसीत् यत् बालाः धरायाः पुष्पाणि
समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र अग्रे इदानीं तत्र इति अस्ति अपि यत् अपि तत्र अस्ति तत्र निमिषद्वयम् अस्ति अतः तत्र एकनिमिषे तत्र अग्रिमे अभ्यासः यत्र अस्ति पेज् 144 तृतीय अभ्यासः तत् किञ्चित् कुर्मः तत्र शुभा भगिनी तत्र पठति वा तत्र तृतीय अभ्यासः 144 चतुर्थ इति अस्तु अस्तु चतुर्थः एव कुर्मः तृतीय इति गृहपाठे न स्वीकुर्मः अस्तु भगिनि चतुर्थः वदतु
यत् इति पदम् उपयुज्य वाक्यानि रचयत परोपकाराय एव मम जीवनं सज्जनाः चिन्तयन्ति यत् परोपकाराय एव मम जीवनं
समीचीनम् इति उपयुज्य किं भवति
परोपकाराय एव मम जीवनम् इति सज्जनाः चिन्तयन्ति
तावदेव समीचीनं भगिनि अस्तु शोभा भगिनि
हितं मनोहारी च वचः दुर्लभं भारवेः वचनम् अस्ति इति भारवेः वचनम् अस्ति यत् हितं मनोहारी च वचः दुर्लभम्
अवगच्छन्ति वा सर्वे अस्तु तत्र वचः इति तत्र वचः इति विभक्ति का तत्र प्रथमाविभक्ति अतः तत्र हितं मनोहारी च वचः दुर्लभम् इति अस्ति तत्र दुर्लभम् इति दृष्ट्वा तत्र क्रियापदमस्ति वा तस्मिन् वाक्ये
नास्ति
किन्तु किं क्रियापदं भवेत् तत्र अस्ति इति दुर्लभम् इति नपुंसकलिङ्गे अस्ति प्रथमविभक्तिरूपम् अस्ति अतः वचः अपि नपुंसकलिङ्गपदम् अस्ति, मनोहारी अपि मनो नपुंसकलिङ्गे अस्ति, हितमपि नपुंसकलिङ्गे अस्ति, एकवचने अस्ति. अतः तत्र सर्वं तत्र वचः इति पदस्य किं विशेषणानि सन्ति. हितं मनोहारी तादृशं वचः दुर्लभम्. अस्तु तत्र हा इदानीं समयः जातः. अस्तु तत्र अन्ये तत्र किमपि तत्र रघुवेदानन्दमहोदय अद्य भवान् करोतु एकमेकं दिने अन्ये अपि कुर्वन्तु तत्र आदौ आदौ अपि अन्ते किमपि शान्तिमन्त्रम् अथवा. अस्तु अद्य करोतु महोदय.
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम् महोदय.
धन्यवादः सर्वेषां. धन्यवादः. नमस्कारः.
धन्यवादः.